एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहालः प्रचण्डः सर्वकारस्य नीति कार्यक्रमाणाम् प्राथमिकतायाः तत्र समावेशनीयानाम् विषयाणाम् च सम्बन्धे सत्तायाम् सहकार्यम् कुर्वताम् दलानाम् शीर्षनेतृभिः यो व्यमृशत्। सीमा प्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालय वित्तीय विमर्शने नेतृभिः देशस्य आर्थिकावस्थाम् विचार्य कृषि पर्यटन वृत्ति सर्जन समर्थेभ्यः क्षेत्रेभ्यः प्राथमिकताम् दातुम् युवजनशक्तेः विदेश पलायन निरोधन समर्थन कार्यक्रमान् आनेतुम् च परामृष्टमिति माओवादी केन्द्रस्य नेता हितराज पाण्डे अज्ञापयत्। उपवेशे केचन नेतारः मौखिक परामर्शान् प्रास्तुवन्। प्रधानमन्त्री प्रचण्डः स्वस्वदलस्य पक्षतो लिखित परामर्शान् प्रदातुम् सत्तायाम् सहकार्यम् विदधानानि दलानि अन्वरुणत् इति नेता पाण्डे अवोचत्। उपवेशात् बहिरागमनस्य क्रमे राष्ट्रिय जनमोर्चा दलस्य अध्यक्ष चित्रबहादुर केसी परम्परागत शैल्या नीति कार्यक्रमा आयव्ययकम् च अर्थतन्त्रे उत्पन्ना समस्या समाधातुम् नसक्नुवन्तीति हेतो नवीन शैल्या चिन्तयितुम् सत्तायाम् सहभागिनाम् दलानाम् परामर्शान् क्रियान्वेतुम् प्रायः सर्वेषाम् दलानाम् नेतृणाम् परामर्शः वर्तते इत्यभासत। सर्वकारेण द्वाषष्टि त्रिषष्ट्यधिक द्विसहस्रतम विक्रम वर्षयोः द्वितीय जनान्दोलनस्य क्रमे आतः काभ्रेपलाञ्चोक जनपदस्य मुकेश कायस्थः राष्ट्रिय हुतात्म उद्घुष्टो वर्तते। सीमा प्रासाद स्थिते प्रधानमन्त्री मन्त्री परिषदः कार्यालये गतदिने उपविष्टम् मन्त्री परिषदः उपवेशम् अनु संचार सूचना प्रविधि मन्त्री रेखा शर्मा जीवित हुतात्मना रूपेण परिचितम् जनान्दोलनस्य आहतम् मुकेश कायस्थम् राष्ट्रिय हुतात्मानम् घोष्टुम् निर्णीतमिति अज्ञापयत्। हुतात्मनः मुकेश कायस्थस्य गत वैशाखस्य अष्टाविंशे दिवसे निधनम् भूतम् आसीत्। मन्त्रिपरिषदः उपवेशेन तिलगंगा नेत्र स्वास्थ्य शिक्षाया मानक विश्वविद्यालयस्य निर्णयार्थम् स्वीकृति प्रदान सम्बद्ध निर्णयेन सह विभिन्न मन्त्रालयानाम् आयोगानाम् च वैदेशिक भ्रमणस्य कार्यक्रमान् स्वीकर्तुम् निर्णीतमिति मन्त्री शर्मा अबोधयत्। मन्त्रिपरिषदः उपवेशेन जुम्ला विमानस्थलस्य विस्ताराय नवीन विमानस्थल कार्यालय भवनस्य निर्माणाय च भूमेः प्राप्त्यर्थं नेपाल नागरिक उड्डयन प्राधिकरणाय स्वीकृतिः प्रदत्ता वर्तते। उपवेशस्य निर्णयानां सार्वजनिकरणस्य क्रमे नागरिकता विधेयकस्य सम्बन्धे संचारकर्मिभिः व्यक्तायाम् जिज्ञासायाम् सर्वकारस्य प्रवक्ता च संचार मन्त्री शर्मा कोऽपि जनः नेपाली नागरिकता विहीनो भूत्वा पीडाम् नानुभवतु इति एकमात्रम् सर्वकारस्य उद्देश्यमस्तीति अवोचत। मन्त्री शर्मा विगतकालिक नागरिकता विधेयकस्य प्रमाणीकरणम् विषयीकृत्य प्रधानमन्त्रिणः आसन्न भारत भ्रमणम् राष्ट्रपतिम् च संयोज्य चर्चनम् असत्यमस्तीति तर्कयन्ति। सर्वकारः शीघ्रातिशीघ्रम् नागरिकता विहीनाः जनाः नागरिकताम् प्राप्नुयुः इत्यत्र स्पष्टो स्थिति अकथयत्। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य सभामुखस्य देवराज घिमिरे भिदस्य च मध्ये ह्यः संसदः उपवेशस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च विषयेष् विमृष्टमस्ति। बाल्वाटारावर्तिनी प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् मेलने सदन सञ्चालनस्य प्रभावकारितायाः संसदि विचाराधीन विधेयकानाम् निष्कर्षे प्रापणस्य च विषयेष् विमृष्टम् वर्तते। मेलने प्रधानमन्त्री प्रचण्डः समितिनाम् उपवेशस्य प्रारम्भानन्तरम् संसद गतिशीलास्ति अतपरम् संसदि विचाराधीन विधेयकानि निष्कर्षे प्रापयितुम् सहजता भविष्यतीति च विश्वासम् व्यक्तवान्। प्रधानमन्त्री प्रचण्डः सर्वकारेण परश्वः ज्येष्ठस्य पञ्चमे दिवसे नीति कार्यक्रमाणाम् प्रस्तुत्यै पूर्वकार्यान्वितम् स्थिति विषये सभामुखम् अज्ञापयत्। तदवसरे सभामुख घिमिरे सदनस्य सञ्चालनाय सर्वकारस्य राजनैतिक दलानाम् पक्षत प्राप्त सहयोगस्य च कृते प्रधानमन्त्रिणे प्रचण्डाय धन्यवादम् व्याहरत्। सभामुखा घिमिरे संसदीय समितिनाम् उपवेशाः उत्साहपूर्ण रूपेण प्रारब्धाः सन्तीति चर्चयन् अगदत् संसद सचिवालयेन नीति कार्यक्रमाणाम् आयव्ययकस्य च पूर्वकार्यम् विहितम् अस्ति। सभामुखा घिमिरे सदने उत्थापितेषु विषयेषु सर्वकारस्य उत्तरम् न प्राप्तमिति सांसदानाम् वेदनायाः विषयः प्रधानमन्त्रिणा गभीरेण गृह्यते इति विश्वासम् व्यक्तवान्। प्रतिनिधि सभाया अन्तर्गतानाम् दशानामेव विषयगत समितिनाम् उपवेशाः ह्यः प्रारब्धाः सन्ति। समितिनाम् ज्येष्ठ सदस्यानाम् अध्यक्षतायाम् ह्यः प्रतिनिधि सभायाः अन्तर्गतानाम् विषयगत समितिनाम् उपवेशाः प्रारब्धाः वर्तन्ते। संसद सचिवालये पंजीकृत्य प्रतिनिधि सभया विमर्शनाय प्रेषितानाम् विधेयकानाम् निष्कर्षे प्रापणस्य कार्यक्षेत्रस्य अभ्यन्तरस्य विविध विषयेषु विमर्शनस्य च दायित्वम् संसदीय समितिभ्यः निर्धारित। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ निगदति भ्रष्टाचारस्य कुशासनस्य च अन्ताय सर्वकार दृढतया निर्वयम् च अग्रे वर्धितो वर्तते। राज्य व्यवस्था सुशासन समिति गत दिवसीय उपवेशे कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य सन्दर्भे विद्यमानस्य अनुसन्धानस्य विषये समितेः सदस्यैः व्यक्तायाम् जिज्ञासायाम् असौ एतस्याम् घटनायाम् संलग्नान् दोषिणो दण्डयितुम् सर्वकार दृढोस्तीति अब्रवीत्। कृत्रिम भूटान देशीय शरणार्थी निर्मात्र्याः घटनायाः अनुसन्धानाय प्रहरिणः अहोरात्रः क्रियाशीलाः सन्तीति सूचयन् असौ अनुसन्धानस्य क्रमे प्रहरिणः अनुसन्धान प्रारम्भण कालादेव कस्मादपि राजनैतिक बलात् अवांछनीय प्रभावाद् वा मुक्ताः स्थातुम् कठोरेण निर्दिष्टाः सन्तीति अभासत। उपवेशे संघीय विषय सामान्य प्रशासन मन्त्री अमनलाल मोदी रिक्त प्रमुख प्रशासकीयाधिकृतेषु कतिपयेषु स्थानीय स्तरेषु यथाशीघ्र तान् अधिकृतान् प्रेषयितुम् गृहकार्यम् जायमानम् अस्तीति असूचयत्। नेपाली कांग्रेस दलेन कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य अनुसन्धानम् निष्पक्षम् स्वतन्त्रम् च विधातव्यम् इति उक्तम् वर्तते। नेपाली कांग्रेस दलस्य प्रवक्ता अर्थमन्त्री च डाक्टर प्रकाश शरण महत ह्य काष्ठमण्डपे पत्रकार सम्मेलनमा आयोज्य कृत्रिम शरणार्थी प्रकरणस्य विषये दलस्य धारणाम् स्पष्टीकुर्वन् अनुसन्धानम् निष्पक्षम् स्वतन्त्रम् च विधातव्यम् एतदर्थम् दलस्य सहयोगो भवतीति समस्पष्टयत। प्रवक्ता डाक्टर महत सामाजिक सञ्जालेषु कतिपय संचार माध्यमेषु च दुष्प्रचारम् कृत्वा निर्दोष व्यक्तयः अपि दोषिणः सम्पादयितुम् विधीयमानम् प्रयासम् प्रति खेदम् प्राकटयत। राष्ट्रिय प्रजातन्त्र दलस्य केन्द्रीय समितेः पूर्णोपवेशे राजनैतिक सांगठनिक प्रादेशिक आर्थिक सचिवालय सम्बद्धानि प्रस्तुत निवेदनानि आधृत्य सदस्यैः धारणा व्यक्ता वर्तते। काष्ठमण्डपे गत सोमवासरे प्रारब्धे उपवेशे अध्यक्षेण राजेन्द्र लिङ्गदेन इत्यनेन प्रस्तुतम् राजनैतिक प्रतिवेदनम् आधृत्य सदस्याः राजसंस्थाम् हिन्दू राष्ट्रम् च संस्थापयितुम् दलेन आवश्यक कार्ययोजना निर्माण प्रवृत्ति परामर्शान् प्रस्तुवन्। उपवेशे राष्ट्रस्य सामयिक राजनीतिकावस्थायाः राष्ट्रियायाः अन्ताराष्ट्रियायाश्च परिस्थितेश्च विषययोरपि विमृष्टमिति नेता राजा रामश्रेष्ठः असूचयत्। सर्वाणि प्रतिवेदनानि आधृत्य केन्द्रीय सदस्येभ्य प्राप्तानाम् परामर्शानाम् आधारेण आगामिन्यः कार्यदिशो निर्धारणाय अद्य महत्वपूर्ण निर्णयो विधीयते इति ज्ञापितम् वर्तते। नेपाल तैल निगमेन डिजेल मृत्तिका तैलयोः मूल्यम् न्यूनीकृतम् अस्ति। भारतीय तैल निगमात् शिला तैलीय पदार्थानाम् क्रयण मूल्यम् न्यूनीकृत्य प्रेषणानन्तरम् नेपाल तैल निगमेन डिजेल मृत्तिका तैलयोः मूल्यम् गतरात्रौ द्वादशवादनतः क्रियान्वयनत्वेन प्रतिलिटरमितम् 10 रूप्यकाणि न्यूनीकृतानि सन्ति। मूल्यस्य न्यूनीभवनानन्तरम् अतः परम् डिजेल मृत्तिका तैलयोः मूल्यम् प्रतिलिटरमितम् 55.00 रूप्यकाणि निर्धारितानि सन्ति। पेट्रोल विमानेन्धन पाचनेन्धनानाम् मूल्यम् यथावदस्थिति निगमेन ज्ञापितम् वर्तते। सर्वोच्च न्यायालयेन टीकापुर हत्याकाण्डे आजन्म कारावासस्य दण्डनम् याप्यमानस्य रेशम चौधरिणः न्यायिक प्रकरणे दीपायलवर्तिनः उच्च न्यायालयस्य निर्णयम् सामर्थ्य चौधरी दोषी निर्धारितो वर्तते। न्यायाधीशद्वयस्य डाक्टर आनन्दमोहन भट्टराई इत्यस्य नः कुलसुविदिनश्च संयुक्त न्यायपीठेन आजन्म कारावासनस्य निर्णयस्य विरूद्धे चौधरीणा सर्वोच्च न्यायालये पञ्जीकारितम् पुनरावेदन निवेदनम् आश्रित्य ह्यः श्रवणम् विधाय उन्मुक्तिः न प्रदातव्येति उल्लिखता दोषी निर्धारितोऽस्ति। अपर प्रतिवादिनः लक्ष्मण थारू इत्यस्य विषये दीपायल उच्च न्यायालयेन निर्धारितम् 55 वर्षाणाम् कारावास दण्डनम् न्यूनीकृत्य वर्षत्रयम् निर्धारितः कैलाली जनपद न्यायालयस्य निर्णय एव समर्थितोऽस्ति। सर्वोच्च न्यायालयेन अस्याम् घटनायाम् कारावास दण्डनम् याप्यमानाभ्याम् गंगाराम चौधरीणे सीताराम चौधरीणे च उन्मुक्ति प्रदानस्य निर्णय श्रावितो वर्तते इति समाचाराः।